एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री लुम्बिनी बौद्ध विश्वविद्यालयस्य कुलपतिश्च शेरवाल देववा कथयति शिक्षा विकासस्य मार्गदर्शनम् वर्तते। प्रधानमन्त्री देववा ह्य लुम्बिन्याम् आयोजितम् लुम्बिनी बौद्ध विश्वविद्यालयस्य दीक्षान्त समारोहम् सम्बोधयन् अवोचत् बुद्धेन प्रतिपादिता सूत्रात्मिकी शिक्षा एकविंश्याम् शताब्द्यामपि महत्वपूर्ण वर्तते। असौ अगदत् देशस्य स्रोतः साधनम् सम्भावनाम् आवश्यकताम् प्राथमिकताम् च निर्धार्य जनशक्तेः उत्पादनम् प्रति उच्च शिक्षा केन्द्रीकर्तव्या। प्रधानमन्त्री देववा अवासत बुद्धस्य मातृभूमि नेपालः आविश्वम् आस्था श्रद्धयोः केन्द्रमस्ति। असौ अवोचत् विश्वविद्यालये सम्प्रति संचालितानाम् कार्यक्रमाणाम् उत्कृष्टताम् संरक्ष्य शिक्षाम् अतिरिक्ताम् समयसापेक्षाम् जीवनोपयोगिनीम् च सम्पाद्य च अग्रे नेतुम् आवश्यकता अस्ति। दीक्षान्त समारोहे शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः अवोचत् सर्वकारेण शिक्षायाम् विहितम् निवेशनम् राष्ट्रस्य विकासे संयोजनीयम्। मन्त्री पौडेल बौद्ध शिक्षाम् आधुनिक शिक्षया सह संयोज्य नैतिकवत्याः जनशक्तेः उत्पादने बलम् प्रादात्। राष्ट्रिय सभायाः अध्यक्षेण गणेश प्रसाद तिमलसिना विधेन सर्वकारस्य विभागीय मन्त्रिणः निर्धारित समये राष्ट्रिय सभायाः उपवेशे उपस्थातुम् निर्दिष्टाः सन्ति। राष्ट्रिय सभायाः ह्यस्तनोपवेशस्य प्रारम्भणस्य अनुपदमेव अध्यक्ष तिमलसिना विभागीय मन्त्रिणः निर्धारित समये उपवेशे उपस्थाय सदनात् जनताम् प्रति उत्तरदायिनो भवितुम् निरदिशत। राष्ट्रिय सभायाः ह्यस्तनोपवेशे गत विक्रम वर्षीयम् कोविड 19 संकट व्यवस्थापन विधेयकम् एतद् विक्रमवर्षीयम् रेल सेवा विधेयकम् च आश्रित्य विमृश्येताम् इति प्रस्तावौ सर्वसम्मत्या पारितकृतौ स्तः। तत्पूर्वम् उपवेशस्य विशेष समये सांसदः जितेन्द्र नारायण देवः प्रमुख राजनीतिक दलेषु सहमतेः आधारेणैव नागरिकता विधेयकम् अग्रे वर्धयितुम् अन्वरुणत। असौ नागरिकता विधेयकस्य निर्माणे नागरिकाणाम् समस्यायाः समाधानम् प्रति देशस्य अस्तित्वस्य संरक्षणम् प्रति च ध्यानम् प्रदातुम् राजनीतिक दलानि अन्वरुणत। सांसदः रामचन्द्र राई अवासत नेपालस्य गृहोद्योगाः राज्येन प्रोत्साहनीयाः। सांसदौ सुरेश कुमार आले मगरः बिना पोखरेलश्च वर्षायामजन्यक प्रकोपाद सम्भावितायाः धनजनयोः क्षतेः न्यूनीकरणाय विशेष कार्यक्रमम् आनेतुम् सर्वकारस्य ध्यानम् आकर्षयताम्। उपवेशे राजेन्द्र लक्ष्मी गैरे विमला राई पौडेलश्चेत्यादयः सांसदाः अवासन्त। मानसरूपेण शारीरिकरूपेण च परिपक्व भवनानन्तरमेव विवाहाय योग्य भवनस्य वैधानिक्या व्यवस्थया मातृशिशोः मृत्योः प्रतिशतम् न्यूनीकर्तुम् सहयोगः प्राप्तोस्तीति हेतोः महिलानाम् 20 वर्षाणाम् वयसानन्तरमेव विवाहाय योग्य भवनस्य वैधानिकी व्यवस्था न निरसनीया। राष्ट्रिय सभायाः अपरोपवेशः श्व रविवासरे पूर्वाह्नस्य 11 पुनर्वस्था। प्रतिनिधि सभायाः विकास प्रविधि समित्या दशकेभ्यः पूर्वस्य आयोजनानाम् अग्रे अवर्धनस्य कारणानि 15 दिनानाम् अभ्यन्तरे समित्यै ज्ञापयितुम् सर्वकारः निर्दिष्टो वर्तते। समित्याः सिंहप्रासादे ह्य उपविष्टेन उपवेशेन नगरीय विकास भवन निर्माण विभागस्य विरुद्धे तौ पञ्जीकारितानाम् निवेदनानाम् विषये 15 दिनानाम् अभ्यन्तरे स्पष्टम् ज्ञापयितुम् नगरीय विकास मन्त्रालयश्च निर्दिष्टोऽस्ति। एवमेव समित्या नगरीय विकास मन्त्रालयेन अर्थ मन्त्रालयेन राष्ट्रिय योजना आयोगेन आयोजनाभिः सह सम्पृक्ताभिः महानगरपालिकाभिः नगरपालिकाभिश्च सह बाह्य चक्रपथायोजनानाम् सम्बन्धे विमृष्टुम् निर्णीतम् वर्तते। उपवेशे नगरीय विकास मन्त्रालयस्य अन्तर्गतानाम् विकास निर्माणस्य तटीय मार्गाणाम् बाह्य चक्रपथ निर्माणादीनाञ्च विषयेषु विमृष्टमासीत्। विमर्शने नगरीय विकास मन्त्री रामकुमार झाँक्री नगरीय विकास मन्त्रालयेन नीतिगत निर्णयम् विधाय बहूनि कार्याणि अग्रे वर्धापितानि सन्तीति भासमाणा बाह्य चक्रपथ निर्माणस्य विषयः 17 वर्षेभ्यः चर्चितः सन्नपि अपेक्षितरूपेण अग्रे वर्धितो नास्तीति स्वीकृतवती। मन्त्री झाँक्री काष्ठमण्डपोपत्यका विकास प्राधिकरणस्य पुनः संरचनायाः चिन्तनम् सर्वकारेण प्रस्तुतम् सदपि एतस्य निरसनम् उपयुक्तम् न भवतीति धारणाम् उपास्थापयत। उपवेशे विकास निर्माणस्य कार्येषु सर्वकारस्य ध्यानम् आकर्षयन्ती समितेः सभापतिः कल्याणी कुमारी खड्का अवोचत। काष्ठमण्डपो उपत्यका विकास प्राधिकरणम् मन्त्रालयस्य अन्तर्गतः समितयश्च स्थापनीयः न वेति विषयस्य औचित्यम् पुष्टिकरणीयम्। उपवेशे सांसदाः बाह्यचक्रपथ निर्माणम् सर्वकारेण प्राथमिकतायम् न स्थापितम्, समान प्रकृतिकाः आयोजनाः विभिन्न मन्त्रालयैः सञ्चाल्यमानाः सन्ति, काष्ठमण्डपोपत्यका विकास प्राधिकरणम् निष्प्रयोजनम् दृष्टम्, अत अस्य विघटनम् कर्तव्यम् चेति धारणाः उपस्थापयन्। प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया आगामिनो मार्गशीर्ष मासस्य दशम दिवसस्य अभ्यन्तरे संघप्रदेशानां निर्वाचनस्य सम्पादनत्वेन निर्वाचनायोगेन पूर्वकार्यं विधीयमानम् अस्तीति ज्ञापयति। प्रतिनिधिसभायाः महिला सामाजिक समितेः ह्य सिंहप्रासादे उपविष्टे उपवेशे प्रमुखायुक्तः थपलिया निर्वाचनाधिनियमस्य संशोधनसमये केनापि राजनीतिकदलेन एकस्मिन्नेव पदे प्रत्याशितायाः प्रस्तुतौ महिलया अनि अनिवार्यतया भाव्यमिति प्रस्तावः प्रस्तुयमानोऽस्तीति अज्ञापयत्। असौ संघ प्रदेशानां निर्वाचने राजनीतिक दलेभ्यः प्रत्यक्ष निर्वाचनस्य पक्षे प्रतिशतं 50% महिलानां प्रत्याशितां प्रस्तोतुं परामृष्टवान्। उपवेशे सप्तानामेव प्रदेशानां महिला सामाजिक समितेः सभापतिभिः आगामिनि निर्वाचने महिलानां गुणात्मक सहभागितां वर्धयितुं वैधानिक व्यवस्थायै बलं प्रदत्तमासीत्। स्थानीय स्तरस्य पालिकाभिः आगामिनः आर्थिक वर्षस्य कृते आयव्यय विवरणानि ह्य पालिकासु प्रस्तुतानि। काष्ठमण्डप महानगरपालिकया आगामिनः आर्थिक वर्षस्य कृते 25 अब्जेभ्यः अपि अधिकानां रूप्यकाणाम् आयव्ययकं प्रस्तुतमस्ति। काष्ठमण्डप महानगरपालिकायाः उपप्रमुखा सुनिता डंगोलः नगरसभायाम् आगामिनः आर्थिक वर्षस्य कृते 25 अब्जानाम् 140 कोटीनां 96 लक्षाणां च रूप्यकाणाम् अनुमानितम् आयव्ययकं व्ययविवरणं प्रस्तुतवती। एवमेव ललितपुर महानगरपालिकया 60 अब्जानां 35 कोटीनां 35 लक्षाणां च रूप्यकाणाम् आयव्ययकं प्रस्तुतमस्ति। भरतपुर महानगरपालिकया आगामिनः आर्थिक वर्षस्य कृते 50 अब्जानां 74 कोटीनां 42 लक्षाणां च रूप्यकाणाम् आयव्ययकं प्रस्तुतं वर्तते। वीरगंज महानगरपालिकया आगामिनः आर्थिक वर्षस्य कृते 33 कोटीनां 63 लक्षाणां च रूप्यकाणाम् आयव्ययकं प्रस्तुतमस्ति। एवमेव विराटनगर महानगरपालिकया आगामिनः आर्थिक वर्षस्य कृते 62 कोटीनां 55 लक्षाणां च रूप्यकाणाम् आयव्ययक विवरणं सार्वजनिकृतं वर्तते। नेकपा एमाले दलस्य वरिष्ठोपाध्यक्ष ईश्वर पोखरेलः भासते जनतायाः बहुदलीय जनवादः नेपालस्य विशिष्टतायां विकसितः मार्क्सवादी सिद्धान्तो वर्तते। मदन भण्डारी फाउण्डेशन संस्थया ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे वरिष्ठोपाध्यक्षः पोखरेलः जनतायाः बहुदलीय जनवादः नेपाली वामान्दोलनाद् अन्तर्राष्ट्रिय वामपद्धतेश्च विकसितः मार्क्सवादी सिद्धान्तोऽस्तीति धारणाम् उपस्थापयत्। भैरवावर्तिनः गौतम बुद्धान्तरराष्ट्रिय विमानस्थलात् आगामिनि सेप्टेम्बर मासे बीजवायुसेवा संस्थानेन च अन्तर्राष्ट्रियोड्डयन सेवा प्रारप्स्यते। हंगेरीदेशात् आविश्वं विभिन्नेषु देशेषु उड्डयन सेवां विदधानया अल्ट्रा लो कस्ट एस वायुसेवया भैरवास्थानात् यूएई देशस्य आबुधाबी स्थानाय उड्डयनं संचालयितुं पूर्वकार्यं विहितमस्ति। आराष्ट्रम् ह्य अतिरिक्तेषु 43 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य अतिरिक्तः 14 जनाः कोरोना विषाणो संक्रमणात्मुक्ताः सन्ति। ह्य अतिरिक्तैः लक्षेण 50,061 जनैः कोरोना प्रतिरोधी टीकाकरणम् आहितमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। इति समाचारः।